आनयिन्द्रो दूराधान आसादभिनिकृतमसेजासदुग्रह भोजिष्ठेभिर्नृपतिर्वज्रबाहुः सङ्गे समत्सु दुर्वणिः प्रतन्यून् आनयिन्द्रो हरिभिर्जात्वच्छार्वाचीनो वासे राधसे च तिष्ठादिवज्रीमघवाभिरप्सीमम् यज्ञमनु नो वाजसातौ इमम् यज्ञम् त्वमस्माकमिन्द्रपुरो दधत्सनिष्यसि कृतम् नः स्वग्नेव वज्रेण सयेधनानाम् त्वया वयमर्यहाजिम् जयेम उषन्नुषणः सुमनाबुपाके सोमस्य न सुषूतस्य स्वधावः वायिन्द्रप्रतिभृतस्य मध्वस्वमन्दसामदः पृष्ट्येन ऋषिभिर्नवेभिर्वृक्षो न भक्वसृण्यो न येताः मर्यो न योषामभिमन्यमानोच्छाविवग्निपुरुहोतमिन्द्रम् गिरन्नयस्वरावाण्डसना देवसः से जात उग्रः आदर्दावज्रम् सवीरम् न भीमबुद्रे मको संवसूनान्दृष्टम् यस्य वर्ता जनुषान्वस्ति न राधसामरीतामघस्य उद्वारुडानस्तविषेव उग्रास्मभ्यम् दद्धि पुरुहूतराजः ईक्षे राजः क्षयस्य दर्शनीनामुदृजनामवर्तासितो नाम् शिक्षानरः स मिथेषु प्रहावान्वस्वो राशिमभिनेतासि भूरिम् यादच्छृण्वे सच्चासचष्टो जयाः गृणोति मुहुकाति धृष्वः गुरुदासु देवि च जिष्ठो अम्भोधाः दधाति द्रवीणम् चरित्रे मानो मर्धीराभरा दद्धिरम् न प्रदासु षेदात वे भूरियत्तेः नव्ये देष्णे सस्ते अस्मिन्त मुख्ये प्रभ्रवाम भजमिन्द्रस्तुवन्ताः नो श्रुतयिन्द्रनो गृणानयिषम् चरित्रे नद्यो ओ नपीपेः अपरारिते हरिवो ब्रह्मणव्यम् धियास्याः मरत्यः सदासाः